इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। अम्बेडकर जयन्त्यवसरे प्रधानमन्त्री नरेन्द्र मोदी ह्यः हरियाणायाः यमुना नगरे अनेकासां विकासात्मक परियोजनानां शिलान्यासं स्थापितवान्। प्रधानमन्त्रिणा राज्यस्मिन् निर्बाधतया विद्युदापूर्ति प्रदानाय भूयोऽपि 70+4,00,000,000,000,000 रूप्यकाणां व्ययेन निर्मितस्य दीनबन्धु छोटूराम थर्मल पावर प्लांट इत्येतस्य संयन्त्रस्य 800 मेगावाट मितस्य ताप विद्युत केन्द्रस्य आधारशिलामपि संस्थापितवान्। असौ मुकरबपुरे एकस्य सम्पीडितस्य जैवेन्धन संयन्त्रस्यापि आधारशिलां संस्थापितवान्। अथ च भारतमाला परियोजनान्तर्गतं 14 किलोमीटरात्मिकीयायाः रेवाड़ी उपमार्ग परियोजनायाः उद्घाटनम् अपि विहितवान्। वक्फ अधिनियमस्य संशोधने प्रवदन् प्रधानमन्त्री प्रोक्तवान् यत् नवीनस्य प्रावधानयुतस्य वक्फ इत्येतस्य पवित्रतायाः सम्मानं कुर्यादिति तथा च एवं सुनिश्चीयते यत् निर्धनजनानां महिलानां बालानां मुस्लिमजनानां च अधिकाराः यथावदेव संस्थापनीयाः। सीमा सुरक्षाबलस्य महानिरीक्षकः रविगांधी ह्यः मुर्शिदाबादनगरस्य शमशेरगंज क्षेत्रस्य भ्रमणं कृतवान्। अनेन अत्रावधौ वरिष्ठाधिकारिभिः साकं समीक्षोपवेशनम् एकं विहितम्। अवधेयं वर्तते यत् पश्चिम बंगाल राज्यस्य दक्षिण चतुर्विंशति परगना जनपदस्य भांगर इत्यत्र काशीपुर क्षेत्रे 9 आरक्षिकर्मीषु आक्रमणं जातम्। विरोध प्रदर्शनं कुर्वन्तः जनैः आरक्षकाणां द्विचक्रिकायानानि भस्मीसात् कृतानि। अपरपक्षे पश्चिम बंगाल राज्यस्य मुर्शिदाबाद जनपदे जातायाः घटनायाः न्यायालयस्य निरीक्षणे विशिष्टान्वेषण दलेन निरीक्षणं कर्तुं च सर्वोच्च न्यायालये याचिका प्रस्ताविता। याचिकाकर्ता शशांक शेखर झाः सर्वोच्च न्यायालयं प्रति SIT इत्येतस्य कृते याचनाम् अकरोत् यत् वक्फ संशोधन अधिनियमस्य विरुद्धं विरोधः किमर्थं विधिव्यवस्थायाः स्थितिं प्राप्नोत् इति परीक्षयतु। गतरात्रौ लखनऊ नगरस्य लोकबन्धो चिकित्सालयस्य द्वितीयतले प्रचण्डाग्नि प्रकोपस्य अनन्तरं गभीर परिचर्यायाः स्थितैः सह 200 संख्यकाः रोगिणः सुरक्षिततया चिकित्सालयात् बहिः स्थानान्तरिताः। अनया घटनया रोगिणां चिकित्सालयस्य कर्मचारिणां च मध्ये संघर्षः जनितः। मुख्यमन्त्री योगी आदित्यनाथः अग्न्युत्पातस्य घटनायाः विषये अवधानं प्राप्य अधिकारिभ्यः निर्देशं दत्तवान् यत् सर्वे पीडिताः रोगिणः तत्क्षणमेव चिकित्सां प्राप्नुयुः इति। उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश पाठकः ह्यः रात्रौ तत्स्थानं प्राप्तवान्। सः चिकित्सालयस्य कर्मचारिणाम् आपत्कालिक सेवानां च त्वरितप्रतिक्रियायाः प्रशंसाम् अपि अकरोत्। उत्तरप्रदेशस्य स्वास्थ्यस्य प्रधानसचिवः पार्थसारथी सेन शर्मा अवदत् यत् अस्यां घटनायां कापि जनहानिः वा क्षतिः वा न अभवत् इति। राष्ट्रिय राजमार्गोत्कृष्टता पुरस्कारस्य 23,000,000 षष्ठं संस्करणम् अद्य नवदिल्ल्यां भविष्यति। यस्य उद्देश्यं नवीन पद्धतीनां प्रोत्साहनं राष्ट्रिय राजमार्ग विकासे तेषाम् उत्कृष्टतायाः कृते वृत्तिकर्तृणां सम्माननं च भविष्यति। एते पुरस्काराः राष्ट्रिय राजमार्ग अवसंरचना क्षेत्रस्य उत्कृष्टोपलब्धीनां उत्सवस्य मञ्चरूपेण च कार्यं कुर्वन्ति। देशे उच्च निष्पादित राजमार्ग सम्पत्तेः निर्माणे अनुरक्षणे च योगदानार्थं व्यक्तिं हितधारकं च सम्मानयन्ति। इण्डियन प्रीमियर लीग इत्येतस्यां 20-प्रतिविंशति क्रिकेट स्पर्धा मालिकायां ह्यः रात्रौ एकाना क्रीडांगणे चेन्नई सुपर किंग्स दलेन 5 स्तोभैः लखनऊ सुपर जायंट्स इत्येतद्दलं पराजितम्। एते वार्ताः।